पेज 58
दशमः पाठः कृषिकाः कर्मवीराः पृष्ठसंख्या 58 से 62 तक। इसमें कुल 6 पद्य दिए गए हैं जो इस प्रकार हैं। सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलं कृषिका कृषिको नित्यं शीतकालेपि कर्मठौ। प्रथमं पद्यं ग्रीष्मे शरीरं सस्वेदं शीते कंपमयं सदा हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः। द्वितीयं पद्यं उपानहौ न पादयोः शरीरे वसनानिनो निर्धनं जीवनं कष्टं सुखं दूरे हि तिष्ठति। तृतीयं पद्यं गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमं तथापि कर्मवीरत्वं कृषिकाणां न नश्यति। चतुर्थं पद्यं तयोः श्रमेण क्षेत्राणि सस्य पूर्णानि सर्वदा धरित्री सरसा जाता या शुष्का कंटकावृता। पंचमं पद्यं शाकमन्नं फलं दुग्धं दत्त्वा सर्वेभ्य एव तौ क्षुधा तृषा कुलौ नित्यं विचित्रौ जनपालकौ। षष्ठं पद्यं